एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रतिनिधि सभाया ह्यस्तनोपवेशेन एतद् विक्रमवर्षीयम् नेपाल नागरिकता द्वितीय संशोधन विधेयकम् आधृत्य विचार्यतामिति प्रस्तावः बहुमतेन स्वीकृतोऽस्ति। गृहमन्त्रिणा रमेश लेखकेन प्रस्तुतम् एतद् विक्रमवर्षीयम् नेपाल नागरिकता सम्बद्धम् द्वितीय संशोधनम् विधेयकम् सामान्येन विमर्शनानन्तरम् बहुमतेन स्वीकृतमस्ति। एवमेव प्रतिनिधि सभायाः ह्यस्तनोपवेशेन एतद् विक्रमवर्षीयम् नेपाल प्रहरी विधेयकम् विचार्यतामिति उक्त्वा प्रस्तुतः प्रस्तावः सर्वसम्मत्या स्वीकृतोऽस्ति। उपवेशे गृहमन्त्रिणा रमेश लेखकेन विधेयकमिदम् प्रस्तुतम् आसीत्। तत्पूर्वं विमर्शने भागं गृह्णन्तः सांसदाः नेपाल प्रहरी सेवां प्रभावकारिणीं विधातुं विधेयकमिदं महत्वपूर्णं भविष्यतीति विश्वासं व्यक्तवन्तः। उपवेशे सांसदानां प्रश्नान् उत्तरयन् गृहमन्त्री लेखकः भारते मृतस्य नेपाली नागरिकस्य प्रकृति लम्सालस्य विषये सर्वकारः गभीरोऽस्ति। भारते विद्यमानेन नेपाली दूतावासेन अस्मिन् विषये कार्यं विद्यमानमस्ति इति च अज्ञापयत्। उपवेश्य गृहमन्त्री रमेश लेखकः एतद् विक्रमवर्षीयं नेपाल प्रहरी विधेयकं प्रहरी सेवां जनमुखां च विधातुं मानितमस्ति, त्यतः प्रहरी सेवा समावेशिनी प्रभावपूर्णा च विधास्यति इति विश्वासम् व्यक्तवान्। उपवेशे प्रधानमन्त्रिणः केपी शर्मा ओलीनः पक्षतः संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ राष्ट्रिय सुरक्षा परिषदः षष्ठम सप्तमम् च प्रतिवेदने प्रास्तौत। उपवेशे प्रतिनिधि सभाया सचिव हर्कराज राई राष्ट्रिय सभातः प्रारब्धम् एतद् विक्रमवर्षीयम् नवीकरणीयोर्जा ऊर्जो दक्षता सम्बद्धम् विधेयकम् राष्ट्रियसभातः प्राप्तेन सन्देशेन सहितम् प्रस्तुतवान्। तत्पूर्वम् प्रतिनिधिसभाया ह्यस्तनोपवेशे सांसदाः खोटाङ जनपदस्य हलैसी स्थाने सम्भूतस्य अग्निदाहस्य तत्र जाताया क्षतेश्च विषये सर्वकारस्य ध्यानम् आकृष्टवन्तः। प्रधानमन्त्री केपी शर्मा ओली निगदति संघीयतायाः विकासस्य द्वाराणि उद्घाटितानि सन्ति। लुम्बिनी प्रदेशसभाया उपवेशम् ह्य विशेषेण सम्बोधयन् प्रधानमन्त्री ओली विकासाय समृद्धये च त्रयाणामेव स्तराणाम् सर्वकार्येषु सहकार्यस्य आवश्यकता अस्ति इत्यत्र बलम् प्रादात्। लुम्बिनी प्रदेश प्राकृतिक रूपेण सांस्कृतिक रूपेण आर्थिक रूपेण च समृद्धिम् लभमानोऽस्ति, संघीयतायामपि विकासः सम्भवतीति लुम्बिनी प्रदेशेन उदाहरणम् प्रस्तुतमस्ति इति च प्रावोचत। प्रधानमन्त्री ओली लुम्बिनी प्रदेशस्य कृषेः पर्यटनस्य उद्योगस्य केन्द्रत्वेन च अग्रेवर्धनस्य योजनायाः विषयं चर्चयन् मानवकेन्द्रित विकासाय प्राथमिकता प्रदेयेति बलं प्रादात्। प्रधानमन्त्री केपी शर्मा ओली गदति सर्वकारेण आनीताः अध्यादेशाः संसदा पारिति करिष्यन्ते। दाङ जनपदस्य घोराई नगरे ह्य नेकपा एमाले दलस्य जनपद समित्या आयोजिताम् जनसभाम् सम्बोधयन् प्रधानमन्त्री ओली समृद्धो नेपालः सुखिनो नेपालिनश्चेति राष्ट्रियाम् आकांक्षाम् पूरयितुम् सर्वकारः केन्द्रितो वर्तते इति समस्पष्टयत। कार्यक्रमे नेकपा एमाले दलस्य महासचिव शंकर पोखरेलः लघुभिः दलैः अनुचितम् भाष्यम् निर्माय कुप्रचारस्य करणेन देशः अस्थिरतायाम् प्राप्तोऽस्ति इति आरोपयत। नेपाली कांग्रेस दलस्य सभापतिः शेरबहादुर देउवा कथयति सर्वकारीयेतर संस्थाभिः परियोजनानाम् परिचयने स्थानीय समुदायानाम् इच्छापि विचारणीया। नेपाली कांग्रेस दलस्य सर्वकारीयेतर संस्थायाः समन्वय विभागेन ह्य सानेपा वर्तिनी दल केन्द्रीय कार्यालये आयोजितायाम् गोष्ठ्याम् सभापतिः देउवा सर्वकारीयेतर संस्थाभिः नेपालस्य सामाजिक विकासाय उडा भूमिका प्रशंसनीया स्थिति अवोचत। सभापतिः देउवा मानवाधिकाराणाम् संरक्षणस्य सुशासनस्य समावेशितायाश्च विषयेषु सर्वकारीयेतर संस्थाभिः प्रभावकारी कार्यम् विधीयमानम् अस्ति इति अगदत्। भारतस्य प्रयागराजे कुम्भमेलायां स्नात्वा प्रत्यावर्तिताः त्रयो नेपालिनः मृताः सन्ति। मृतेषु रूपन्देही जनपदस्य देवदह नगरपालिकायाः नवमवडा क्षेत्रस्य पञ्चचत्वारिंशद् वर्षीयः गणेश खनालः, तस्य धर्मपत्नी पञ्चत्रिंशद् वर्षीया दीपा, चत्वारिंशद् वर्षीया गीता शर्मा च वर्तन्ते इति ज्ञापितम् अस्ति। भारतस्य प्रयागराजे आयोजितायाः कुम्भमेलातः प्रत्यावर्तन समये उत्तरप्रदेशस्य आजमगढ़ वाराणसी मार्गस्य विभाजक प्राकारे संघर्षणेन यानं दुर्घटितम् आसीत्। दुर्घटनायां आहतानां पञ्चानां जनानां गोरखपुरे उपचारः जायमानोस्तीति प्रहरिणा ज्ञापितं वर्तते। यानचालकस्य निद्रावस्थायां प्राप्तेः कारणेन दुर्घटना जातेति प्रहरिणा ज्ञापितमस्ति। गत माघमासे एव नेपाले सहस्रचतुष्टयं पञ्चत्रिंशदधिक पञ्चशतं च यातायात साधनानि दुर्घटनाग्रस्तानि सन्तीति नेपाल प्रहरिणा ज्ञापितम् अस्ति। दुर्घटनायां नवनवत्युत्तर शतं जनाः मृताः, षष्ट्यधिक पञ्चशतं जनाः गभीरेण आहताः, सहस्रत्रयं एकपञ्चाशदधिक शतत्रयं जनाः सामान्येन आहताश्च सन्तीति नेपाल प्रहरी प्रधान कार्यालयेन ज्ञापितं वर्तते। दुर्घटनासु सर्वाधिक मोटर साइकल यानानि दुर्घटनाग्रस्तानि सन्तीति केन्द्रीय प्रहरी प्रवक्ता प्रहरी नायब महानिरीक्षक दिनेश कुमार आचार्य असूचयत। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ गदती पत्राचार चिटिकाया माध्यमेन लोपोन्मुखाया परम्परागत कला संस्कृतेः संरक्षणं विधातव्यम्। पत्राचार सेवा विभागेन राष्ट्रिय प्रजातन्त्र दिवसस्य अवसरे सप्ताहव्यापी रूपेण ह्य काष्ठमण्डपे आयोजिते पत्राचार चिटिका प्रदर्शनी कार्यक्रमे मन्त्री गुरूङ समाजस्य परम्परागत मूल्य मान्यतायाः, जीवनशैल्याः, पर्यटनस्य च विषयवस्तुनि निश्चित्य पत्राचार सेवा विभागेन मुद्रणीयानीति प्रावोचत। कार्यक्रमे मन्त्री गुरूङ पञ्चमार्क मुद्रायुतायां चिटिकायां, भित्रीकोट प्रासाद मुद्रितायां चिटिकायां च टंकनम् अकरोत्। परराष्ट्र मन्त्रिणा डाक्टर आरजू राणा देवा इत्यस्याः इरान देशस्य विदेश मन्त्रिणा अब्बास अराग्जी इत्यनेन सह ओमन देशस्य मस्कट स्थाने मेलवार्ता सम्भूता अस्ति। अष्टम हिन्द महासागर सम्मेलने सहभागिताय ओमान देशस्य राजधानीयां मस्कट स्थाने विद्यमानाः परराष्ट्र मन्त्रिणा डाक्टर देवा विदाया इरान देशीय विदेश मन्त्रिणा सह मेलवार्ता सम्भूता अस्ति।